सर्वेभ्यो नमः, स्वागतम्। अद्य बहुजनाः न सन्ति इति कारणतः अद्य पदानाम् अभ्यासं कुर्मः। अस्तु, इदानीं लेट् अस् स्टार्ट् वित् अकारान्तपुल्लिङ्गः। अस्तु, अत्र आरम्भं कुर्मः। अत्र आकाशः इति अस्ति। आकाशः तस्य प्रथमाविभक्तिः अपि षष्ठीविभक्तिः वदन्तु। अस्तु, प्रथमतया मोहन् महोदय, भवान् करोति वा?
आकाशः षष्ठीविभक्ति आकाशः आकाशस्य आकाशस्य आकाशयोः आकाशानाम्।
आम्, समीचीनम्। अस्तु, किन्तु टु महोदय,
आचमनीयः आचमनीयस्य आचमनीयोः आचमनीयानाम्।
अस्तु, इदानीं प्रिया भगिनि।
आपणिकः आपणिकस्य आपणिकयोः आपणिकानाम्। आरक्षकः आरक्षकस्य आरक्षकयोः आरक्षकानाम्।
समीचीनम्। अस्तु, इदानीं गोपाल् महोदय।
आर्यपुत्रः आर्यपुत्रस्य विच्छिविभक्तिवान् षष्ठी विच्छिविभक्ति भगिनी
प्रथमान् षष्ठी
आर्यपुत्रः आर्यपुत्रौ आर्यपुत्राः आर्यपुत्रस्य आर्यपुत्रयोः आर्यपुत्राणाम्। अण्ड् पतिः पतयः।
अस्तु, अनन्तरं
पत्या पतिभ्यां पतिभिः पत्ये पत्योः
न पतिः इति इट्स् अ स्पेशल् वर्ड्, इट् हेस् डिफ़्रेण्ट् विभक्तीस्। सो आसन्दः करोतु महोदय।
आसन्दौ आसन्दाः आसन्दस्य आसन्दयोः आसन्दानाम्। इन्द्रजालकः
अत्र मोहन् महोदय भवान् करोतु।
भगिनि, वि डिन्ट् डु पतिः, रैट्? वि जस्ट् लेफ्ट् इट्, रैट्?
यस्।
उपग्रहस्य उपग्रयोः उपग्रहाणाम्। नेक्स्ट् पेज् भगिनि स्वीकरोतु।
अस्तु, इदानीं प्रिया भगिनी भवती करोतु।
कूर्मः कच्छपः कूर्मस्य कूर्मयोः कूर्माणाम्। I can't see the next page, pardon.
Sorry.
Kataha, katasya, katayoho, katanam. Katoraha, katorasya, katorayoho, katoranam. Do you want me to do the next one, Padhi?
अत्र स्थगयतु. इदानीं गोपाल् महोदय भवान् करोतु.
कठोरः भगिनि कपोतः कपोतः कपोतौ कपोताः कपोतस्य कपोतयोः कपोतानाम्
अस्तु. मोहन् महोदय
करण्डकः ओके ऐ डु प्रथम आन्सर् करण्डकः करण्डकौ करण्डकाः करण्डकस्य करण्डकयोः करण्डकानाम् नेक्स्ट् आल्सो भगिनि
अत्र स्थगयतु. प्रिया भगिनि
करदीपः भगिनि करदीपः करदीपस्य करदीपयोः करदीपानां कर्णः कर्णस्य कर्णयोः कर्णानां कलङ्कः कलङ्कस्य कलङ्कयोः कलङ्कानां
अस्तु. अतः स्थगयतु. इदानीं गोपाल् महोदय
कलाकारः कलाकारः आर्टिस्ट् कलाकारः कलाकारौ कलाकाराः कलाकारस्य कलाकारयोः कलाकाराणाम् कंसस्य कंसयोः कंसानाम्
अस्तु. काकः करोतु.
काकः काकौ काकाः काकस्य काकयोः काकानाम्
कादम्बौ कादम्बाः रामौ रामः कादम्बौ कादम्बाः कादम्बस्य कादम्बयोः कादम्बानाम्
अस्तु. इदानीं प्रिया भगिनि
कुक्कुटः कुक्कुटस्य कुक्कुटयोः कुक्कुटानां कुञ्चिकागुच्छयोः कुञ्चिकागुच्छानां किं नोदपेच् भगिनि कुलालः कुम्भकारः कुम्भकारस्य कुम्भकारयोः कुम्भकाराणां कुलालः कुलालस्य कुलालयोः कुलालानां
समीचीनम् अस्तु. इदानीं गोपाल् महोदय भवान् करोतु.
कूर्चः इस् ब्रश् कूर्चः कूर्चौ कूर्चाः कूर्चस्य कूर्चयोः कूर्चानां कृषकः फार्मर् कृषकः कृषकौ कृषकाः कृषकस्य कृषकयोः कृषकानां केशः केशः इस् हेयर् केशः केशौ केशाः केशस्य केशयोः केशानाम्
नेक्स्ट् पेज् भगिनि क्षणः क्षणः क्षणौ क्षणाः क्षणस्य क्षणयोः क्षणानां क्षत्रियः क्षत्रियौ क्षत्रियाः क्षत्रियस्य सारि क्षत्रियस्य क्षत्रिय क्षत्रियोः क्षत्रियाणां क्षत्रियोः क्षत्रिययोः क्षत्रियोः क्षत्रियाणां क्षत्रियस्य क्षत्रियोः क्षत्रियाणां खगः खगौ खगः खगौ खगाः खगस्य खगयोः खगानां विहगः विहगौ विहगाः विहगस्य विहगयोः विहगानां नेक्स्ट् वाक्स भगिनि
अत्र स्थगयतु प्रिया भगिनि
sorry bagni which one are we doing kalaha kalasya kalayoho kalanam krutilaha is it krutilaha bagni or kutilaha krutilaha right Is it Kr Bhagini? That lefas letter? Sorry, I'm not thinking.
Kutilaha.
Kutilasya kutilayoho kutilanam. Look at this one. Okay. Gajaha. Gajasya gajayoho gajanam. Gayakasya gayakayoho gayakanam. Bhagini, one question. What is the meaning of Shanaha, Bhagini?
Utsavaha.
Second.
Second is also there. Utsava nama festival or memorable moment.
Okay. Dhanyavada, Bhagini.
अस्तु इदानीं गोपाल् महोदय
कलः भगिनि कलः
न कलः
गजः गजः गजौ गजाः गजस्य गजयोः गजानां गायकः गायकः गायकौ गायकाः गायकस्य गायकयोः गायकानां ग्राहकः कस्टमर् ग्राहकः ग्राहकौ ग्राहकाः ग्राहकस्य ग्राहकयोः ग्राहकानां घटः घटौ घटाः घटस्य घटयोः
अस्तु इदानीं मोहन् महोदय
चमसः चमसौ चमसाः चमसस्य चमसयोः चमसानां चषकः चषकौ चषकाः चषकस्य चषकयोः चषकानां चालकः चालक चालकयोः चालकानाम् ऐ एम् जस्ट् गोइङ्ग् टु से षष्ठी विभक्ति भगिनी इट्स् गेटिङ्ग् कन्फ्यूसिङ्ग् इफ् ऐ डोन्ट्
अस्तु अस्तु महोदय
चालकः चालकयोः चालकानां चित्रपतङ्गः चित्रपतङ्गौ चित्रपतङ्गयोः चित्रपतङ्गानां चोरः चोरयोः चोराणां
समीचीनम् इदानीं प्रिया भगिनी
चोलः चोलस्य चोलयोः चोलानां छात्रः छात्रस्य छात्रयोः छात्राणां जनकः जनकस्य जनकयोः जनकानां पिता पितृः पितृयोः पितॄणां न शर्वदपि think it's pitrunam bahuvachanam pitrasya or
pituhu prakaranta pumlinga
pituhu pitroh pitrunam okay pituhu pitroh pitrunam
अस्तु इदानीं गोपाल् महोदय
जम्बुकः जकाल् जम्बुकः जम्बुकौ जम्बुकाः जम्बुकस्य जम्बुकयोः जम्बुकानां ज्वालकः लैटर् ज्वालकः ज्वालकौ ज्वालकाः ज्वालकस्य ज्वालकयोः ज्वालकानाम्
अस्तु आम् इदानीं मोहन् महोदय दृश्यते वा
तडगः तडागः तडागस्य तडागयोः तडागानां तडागः इस् पाण्ड् तण्डुलः रैस् डि हस्क् नन्कुट् तण्डुलस्य तण्डुलयोः तण्डुलानां तर्कः तर्कयोः तर्कानां तालः तालयोः तालानां त्रिकोणः त्रिकोणयोः त्रिकोणानां दण्डः दण्डयोः दण्डानां नेक्स्ट् पेज्
क्षम्यताम् अस्तु प्रिया भगिनि
दण्डदीपः दण्डदीपस्य दण्डदीपयोः दण्डदीपानां दन्तः दन्तस्य दन्तयोः दन्तानां दन्तकूर्चः दन्तकूर्चस्य दन्तकूर्चयोः दन्तकूर्चाणां दर्पणः दर्पणस्य दर्पणयोः दर्पणानां पेज् भगिनि
दृश्यते वा गोपाल् महोदय भवान् पठतु
दीपः वी आर् डूयिङ्ग् प्रथम अण्ड् षष्टि आर् ओन्लि षष्टि भगिनि
पुनः वदतु महोदय
वी आर् डूयिङ्ग् प्रथम अण्ड् षष्टि रैट्
यस्
Deepah, Deepau, Deepa.
If you can do Pratama and Shashti, if it's confusing, then just do Shashti Bhakti.
Okay. Deepasya Deepayoho Deepanam. Durina Yantrakaha, remote. Durina Yantrakaha, Durina Yantrakau, Durina Yantrakaha. Shashti Vibhakti, Durina Yantrakasya, Durina Yantrakayoho, Durina Yantrakanam. Devalayaha, temple. Devalayaha, Devalayoho, Devalayaha, Devalayasya, Deva, sorry, Devalayaha, Devalayau, Devalayaha, Devalayasya, Devalayoho, Devalayanam, Deshaha, Deshau, Deshaha, Deshasya Deshayo Deshanam. Then beginning.
Samichinam. Idanim Priya Bhagini.
Dana Yutaha. Dana Yutasya. Dana Yutasya. Dana Yutayoho. Dana Yutanam. Danikaha. Danikasya. Danikayoho. Danikanam. Davakaha, Davakasya, Davakayoho, Davakanam. Divaraha, Divarasya, Divarayoho, Divaranam. Dumaha, Dumasya, Dumayoho, Dumanam. Duma Nirgamaha. Duma Nirgamasya, Duma Nirgamayoho, Duma Nirgamasya, Duma Nirgamananam. Did I say that right? Durga Nirgamasya, Durga, Duma Nirgamayoho, Duma Nirgama, Nirgamanam. Next page for me.
So it is Dhuma Nirgamanam, right?
Dhuma Nirgamanam.
Astu. This is enough for Akaranta Pulingaha.
Yes.
Let's do Akaranta Napumsakalingaha. Ardrakam. Mohan
Akaranta Napumsakalingam. Ardrakam is Jinger. Akaranta Pumlinga, right? Or Napumsakalinga. Akaranta Napumsakalinga. Okay, that's also same. Ardrakamasya, Ardrakamayoho, Ardrakamanam. Alukam, Alukasya, Alukayoho, Alukanam. Udagra Yanam, Udagra Yamasya, Udagra Yamayoho, Udagra Ya, Udagra Yanamanam. Udaram, Udarasya, Udarayoho, Udaranam. Correct, Pagini? Udaranam? Udaram? Or is it Udaramanam? Udaramanam, right?
Udaranam or Udaramanam, bhagini? Udaranam, right?
Yes, Udaranam. Isn't that
not not Udaramanam.
Udaranam, Udaranam. I thought you said Udaranam. I heard Udaranam, sorry. It is Udaranam, not Udaramanam.
Yeah, I said Udaranam first, and then second time I said Udaramanam, so it's not that.
अस्तु इदानीं प्रिया भगिनी भवती पठतु.
उपनेत्रम् उपनेत्रस्य उपनेत्रयोः उपनेत्राणाम् उर्वारुकस्य उर्वारुकयोः उर्वारुकाणाम् ऊरुकम् ऊरुकस्य ऊरुकयोः ऊरुकाणाम् त्रिजीषं भगिनि त्रिजीषं कृजीषं ऋजीषं ऋजीषं and the other word is brashtram rijishasya rijishayoho rijishanam brashtrasya brashtrayoho brashtranam.
Bhagini, one question.
Yes, Mahodaya.
So, you know, there is, I think it's Mahamrityunjaya mantra, right? Urvarukam is the cucumber. Mrityor Mikshiya Mahamrityunjaya is what you say, what is it?
Oh. Oh, what's your question, Mahamrityunjaya? I don't understand it.
Urvarukam is cucumber or is it gooseberry?
No,
cucumber.
No. No, this comes in Mahamrityunjaya mantra, right?
There might be different meanings, Mahodaya.
Correct. Urvarukamiva bandhanat mrityor mukshiyam amratat. Yes.
Aham na janami. Maybe there's another meaning for which they have put the word there.
Is that Urvaruka or Urvaruka in the mantra? Is there a... I wonder if it's different. I don't know.
It's Urvarukamani, not U.
Urvarukamani, okay.
Yeah, it is exactly the same.
Okay. Interesting.
Should I go for Urukam, Bhagini? Urukam. 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 Uruke, Urukani. And Urukasya, Urukayoho, Urukanam. Rijisham, Rijishe, Rijishani, Rijishasya, Rijishayoho, Rijishanam, Vodanam, Vodanam, Vodane, Vodanani, Vodanasya, Vodanayoho, Vodananam, Kankanam, Angle, Kankanam, Kankane, Kankanani, Kankanasya Kankanayoho Kankananam कंकतम कुंभ कंकतम कंकते कंकतानि कंकतस्य कंकतयोः कंकतानाम्
समीचीनम् अस्तु.
It looks like it might be a cucumber only, Vagini. At least on the website, that's what it says, like a cucumber.
Tadeva aham api janami. That's what I also know.
So say that, Vagini. What did you say?
It seems like even as a cucumber is severed from its bondage to the creeper, like that liberation, maybe we bestow that liberation from death. For the sake of immortality. So it looks like it's the same meaning there also. Urvarukkameva means cucumber there.
That's interesting.
Yeah. Yeah, that's interesting, Adya. Thanks for bringing it up.
अस्तु इदानीं कः करोति मोहन महोदय भवान् एव करोतु.
कदलीफलं कदलीफलस्य कदलीफलयोः कदलीफलानां कलिङ्गफलं कलिङ्गफलस्य कलिङ्गफलयोः कलिङ्गफलानां काजूतकं काजूतकस्य काजू काजूतकमस्य काजूतकमयोः काजूतकमानां कारयानं
काजूतकानां और कमानां काजूतकानां
नाट् ओके काजूतकानां ओके नाट् देयर नो म
एक फल शब्दम फलम दैट माय सफिक्स दैट पार्ट ऑफ द शब्द
फलानाम ओके
फलम फले फलानि
फलस्य फलयोः फलानाम
फलानाम
सो देन कलिंग फलानाम ओके कलिंग फलानाम कदली फलानाम द मा गोज आई थिंक राइट. The ma is gone there. Kajuta kanam. Is it that, Bhagini? The ma goes in nam, it becomes nam.
Kajuta
kanam. Halanam. So the previous word becomes akaranta and then naam. Kajuta kanaam. Okay. Kushmandakam. Kushmandakasya. Kushmandakayoho. Kushmandakanaam. Krishna nibad nibambam Krishna nimbam Krishna nimbam Krishna nimbam is it Krishna nimbam Bhagini? Did I say it correctly? Krishna nimbam
Krishna nimbam
okay Krishna nimba yoho Krishna निम्बानाम् नेक्स्ट् पेज् भगिनि.
इदानीं प्रिया भगिनि
कृष्णफलकं कृष्णफलकस्य कृष्णफलकयोग कृष्णफलकयोः कृष्णफलकानां क्रीडाङ्गणं क्रीडाङ्गणस्य क्रीडाङ्गणयोः क्रीडाङ्गण क्रीडाङ्गणानां वाट् इस् द फस्ट् लेटर् भगिनि कितकं कितीतं वाट् इस् द फस्ट् लेटर् इन् दट् भगिनि But it looks different, Bhagini, not just the ka, there's something below the ka.
Oh, right, Bhagini, kvatitam.
Oh, va and ka. Oh, okay, okay. Kvatitam. Kvatitam. Kvatitasya, kvatitayoho, kvatitanam. Kanitram. Kanitram. That means said. Kanitrasya, kanitayoho. Or is it Kanitroho, Bhagini? Kanitroho, Kanitroho. How is this, Bhagini? Is it the, does it follow the same rules or is this different, like?
Kvatitam, it's the same rules, Bhagini.
No, the next one, Bhagini, Sped, Kanitram. Kanitrasya, Kanitram. Kanitrayoho and Kanitranam, or is it different, is it special, Bhagini?
Punahavadatu, Bhagini?
Kanitram, Bhagini, is it Kanitrasya, Kanitrayoho and Kanitranam, or the, because of the Tra, I'm wondering, is it different?
No, it's the same thing, Bhagini.
Oh.
Whatever you said.
Okay. खर्जूरफलं खर्जूरफलं खर्जूरफलस्य खर्जूरफलयोः खर्जूरफलफलानां
समीचीनम् अस्तु इदानीं गोपाल् महोदय
गृञ्जानकं केरेट् गृञ्जानकं गृञ्जानके गृञ्जानकानि गृञ्जाकनस्य गृञ्जाकनयोः गृञ्जानकानां गृहं गृहे गृहाणि गृहस्य गृहयोः गृहाणां धृतं घृतं घृते घृताणि घृतस्य घृतयोः घृतानां चक्रं चक्रे चक्राणि चक्रस्य चक्रयोः चक्राणां चक्रयानं चक्रयानं चक्रयाने चक्रयानयानि चक्रकानस्य चक्रकानयोः चक्रयानयानाम् वास् अ बिट् आफ् ए ट्रङ्क् ट्विस्टर्
नेक्स्ट् पेज् भगिनि चन्दनं चन्दनस्य चन्दनयोः चन्दनानां चरणं चरणमस्य चरणयोः चरणयोः रैट् द म इस् नाट् दट् फलं फलयोः चरणयोः चरणानां
द मास् ड्राप्ड् इन् द फस्ट् वन् आल्सो महोदय चरणस्य
ओ सारी सारी ऐ एम् थिङ्किङ्ग् समथिङ्ग् ऐ एम् या charanam charanasya charanayoh charananam yes churnam thank you bhagini churnasya churnayoh churnanam now what happened is I'm thinking you know again I'm going to prathama vibhakti yeah, because gopal mohdaya said it I was in prathama and then suddenly moved so chatram chatrasya chatrayoh chatranam next page bhagini Could we do some ikaranta ukaranta
aam aam kurmaha ikaranta strilingaha kurmaha angulihi priya bhagini
ikaranta strilingam bhagini anguliyah अङ्गुलिः अङ्गुल्याः अङ्गुल्योः अङ्गुल्यानां सर्करे पर्णि
आम् आम्
इस् इट् अङ्गुलीनां लैक् मतिः
अङ्गुलीनाम् अय्या ऐ थिङ्क् सो
इट्स् लैक् मत्शब्द मत्याः और् मतेः मतयोः मतीनां अङ्गुलिः अङ्गुल्याः और्
अङ्गुल्याः अङ्गुल्योः अङ्गुलीनाम्
और् अङ्गुलेः अङ्गुलीनां
ओके अनि अनिल चुल्लिः अनिलचुल्लिः गेस् स्टव् ओके अनिलचुल्लिः अनिलचुल्याः अनिलचुल्योः अनिलचुल्लीनाम्
बहुवचनं
अनिलचुल्लीनाम् so the last letter becomes ikaranta
nadi shabdavat
like nadi
shabd not nadi shabd nadi shabd is ikaranta sthira mati shabd
so this is mati shabdavat
nadi shabdavat is ikaranta
So, the last one is, it's still the same, no? For both Nadi and Mati, the last one is, becomes...
Mati is this one, no? This is Ikaranta Strilinga, right?
Ikaranta Strilinga.
There is no such thing called Ikaranta, Ikaranta only.
No. Strilinga has both. Only Pumlinga has small only, no big. So Pumlinga, there is no Ikaranta, Akaranta is not there. So Srilinga will have both, E and A. Like Harihi, Harihi, Kavihi, Munihi. There is no Ikaranta Pumlinga, but there is Ikaranta and Ikaranta Srilinga. Like Harihi, Munihi, Rishihi, Girihi, so small E's. All that is Ikaranta Pumlinga.
Whereas so, I think for both the forms are the same.
No, but here it is given Ikaranta Strilinga only.
The forms I was saying is the same for Ikaranta and Ikaranta Strilinga. Nadyaha, Nadyoho, Nadinam. And same thing for Matihi, Matyaha, Matyoho, Matinam.
No, that is there, but you know, they, for everything it is naam there, naam here, but the matyaha also you can say, matehe also you can say, there are two words.
Yes.
So, but Srilinga will have both small and big, T and E. Pumlinga only has the smaller one.
Is it not there, or have we not just not learnt it?
No, no, I don't think it is there at all. At least, you know, from what I...
Oh, okay.
No, Mati Shabdam is Strilinga, correct.
Yeah,
but is Matyaha Matibhyam Matinam, yeah. Matyaha Matyoho Matinam, correct. And Nadi Shabdam is?
Nadyaha,
Nadyoho, Nadinam. It is same only. Yeah, but for the Mati Shabdam, Matehe is also allowed.
Yes.
I'll keep going, Bhagini. Asaptihi.
Ekamsha. इदानीं मोहन् महोदय भवान् पठतु.
आसक्तिः आसक्त्याः आसक्त्योः आसक्तीनां कीर्तिः कीर्त्याः कीर्त्योः कीर्तीनां कुटिः कुट्याः कुट्योः कुटीनां गतिः गतिः गत्योः गतीनां स्थितिः स्थित्याः स्थित्योः स्थितीनां गतिः गत्याः गत्योः गतीनां स्थितिः स्थित्याः स्थित्योः स्थितीनां नेक्स्ट् पेज् गच्छ
गोपाल् महोदय भवान् पठति वा
भगिनी किं
सारि इस् इट् फार् मी भगिनी
आम् आं महोदय
इफ् यु केन् मूव् द पेज् अप् अ लिटल् बिट् भगिनी वी काण्ट् सी
एण्ड् वाट् इस् द शब्दम्
कीर्तिः
कीर्तिः या कीर्तिः फेम् कीर्तिः कीर्त्यौ मतिः मती मतयः न कीर्तिः कीर्ती कीर्तयः कीर्त्या कीर्त्योः कीर्तीनां कुटिः इस् वाट् हट् कुटिः कुटिः कुट्योः सारी मति शब्द नो सो इस् इट् मति हौ विल् बि नो इट् इस् ईकारान्तः आर् ईकारान्तः सारि 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 कुटिः इस् मति मतिः यस् करेक्ट् कुटिः कुटी कुटयः कुट्याः आर् कुटेः कुट्योः कुटीनां नेक्स्ट् गतिः गतिः गती गतयः गत्याः गतेः गत्योः गतीनां तिथिः तिथिः तिथि तिथयः तिथ्याः तिथेः तिथ्योः तिथीनां डन् भगिनि
समीचीनम् अस्तु इदानीं प्रिया मोहन् महोदय
त्रुटिः त्रुटिः त्रुट्याः त्रुट्योः त्रुटीनां दीप्तिः दीप्त्याः दीप्त्योः दीप्तीनां दृष्टिः दृष्ट्याः दृष्ट्योः दृष्टीनां नाभिः नाभ्योः नाभीनां नेक्स्ट् पेज्
अस्तु अत्र स्थगयामः वा अद्य
भगिनि
धन्यवादः.